नमश्चण्डिकायै मार्कण्डेयुवाच ॐ यद्गुहं परमं लोके सर्वरक्षाकरं नृणां यन्न कश्चिदाख्यातं तन्मे ब्रूहि पितामह ब्रह्मोवाच अस्ति गुहत्वं विप्र सर्वभूतोपकारकं देव्यास्तु कवचं पुण्यं तच्छनुष्व महामुने प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकं पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च सप्तमं कालरात्रीति महागौरीति चाष्टमं नवमं सिद्धिदात्री च नवदुर्गा प्रकीर्तितः उक्तान्येतानि नामानि ब्रह्मणैव महात्मना अग्निना दहमानस्तु शत्रुमध्ये गतोरणे विश्वे दुर्गमे चैव भयार्तः शरणं गतः न तेषां जायते किञ्चित् शुभं रणसङ्कटे नापदं तस्य पश्यामि शोकदुःखभयं नहि।